युभोरजांसि सुयमासो अश्वारथो यद्वाम् पर्यन्नांसि दीयत् हिरण्यजा वाम् भवयः पृषा जन्मद्भक्तिबन्ता वृषसस्रेते युवक्षतो यद्विपत्मनोदर्यस्य प्रयज्योः स्वसा यद्वाम् विश्वगूर्तिभरा दिवाजायेट्टे मधुपाभिषे च युवम् वयुश्रियाजामधत्तम् भक्वमामायामभूर्यङ्गोः अन्तर्यद्वरिणो वामृधत्सु पारो न सुचर्यज ते हविष्मान् युवम् घर्मम् मधुमन्तमत्र देवो न क्षोदो वृणीतभेषे तद्वान्नरापस्विनापस्वयिष्ठीरथ्येव चक्रा प्रदीयन्ति मध्वाः आवान् दानाय ममृतीयदस्रागोरोहेण तौग्र्यो न जिव्रीः अपहाक्षोणी स च ते माहीनावाम् जूर्णो वामक्षुरम् भासो यजत्रा नियजिवेदे निजितः सुदानोपसुदाविश्वपुरन्धिम् रेढद्वेषद्वाको न सूरिरामहेत देशो व्रतो न वाजम् पदम् सिद्धिवाञ्जलिदारः सत्यामि पन्यामहेऽपि पनिर्हितावामि सिद्धिष्माश्विनामनिन्द्या बाधो हिष्मा वृषणामन्ति देवम् युवाम् सिद्धिष्माश्विनामरुद्योन्विरुद्रस्य प्रश्रवणस्य सातौ अगस्त्यो नृषपदस्तकाराधुनीमजिलयत्सहस्रैः प्रयद्महे महिनारथस्य प्रस्वन्दायाधो मनुषो न होता भद्रम् सूरिभ्य उदभास्वस्वन्नासत्यादयिराकस्याम तम् वाम् रथम् वयमद्याहो वे वस्तोमैरश्विनासुमिदाजनव्यम् अरिष्टने बिम्ब निद्यामि यानम् विद्याभेदम् वृजनम् धीरदानम्